ॐ अस्य श्रीमद्भगवद्गीता माला मन्त्रस्य भगवान् वेदव्यास ऋषिः अनुष्टुप् छन्दः श्रीकृष्णः परमात्मा देवता अशोच्यानन्वशोचस्त्वम् प्रज्ञावादांश्च भाषसे इति बीजम् सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज इति शक्तिः अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि माशु च इति कीलकम् नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक इत्यङ्गुष्ठाभ्यां नमः न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति तर्जनीभ्यां नमः अच्छेद्योयमदायो मक्लेद्योशोष एव च इति मध्यमाभ्यां नमः नित्यः सर्वगतः स्थाणु रचलोऽयं सनातन इत्यनामिकाभ्यां नमः पश्य मे पार्थरूपाणि शतशोऽथ सहस्रश इति कनिष्ठिकाभ्यां नमः नानाविधानि दिव्यानि नानावर्णाकृतीनि च इति कर्तलकरपृष्ठाभ्यां नमः नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक इति हृदयाय नमः न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति शिरसे स्वाहा अच्छेद्योयमदायो मक्लेद्योशोष एव च इति शिखायै वषट् नित्यः सर्वगतः स्थाणु रचलोऽयं सनातन इति कौचायहुं पश्य मे पार्थरूपाणि शतशोऽथ सहस्रश इति नेत्रत्रयाय वौषट् नानाविधानि दिव्यानि नानावर्णाकृतीनि च इति अस्त्राय फट् श्रीकृष्णप्रीत्यर्थे पाठे विनियोगः नारायणेन स्वयं व्यासेन ग्रथितां पुराण मुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवती मष्टादशाध्यायिनी मं त्वामनुसन्दधामि भगवद् गीते भवद्वेषिणी विशाल बुद्धे कुल्लारविन्दायत पात्र नेत्र येन त्वया भारत तैलपूर्ण प्रज्वालितो ज्ञानमयः प्रदीप पारिजाताय पुत्रवेत्रैकपाणये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः वसुदेवसुतं देवं कंसचाणूरमर्दनम् देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् जयद्रथ जला गांधार नीलोत्पला शल्य ग्राहवती कृपेण वहनी कर्णेन वेलाकुला अश्वत्थाम विकर्ण मकरा दुर्योधनावर्तिनी सोतीर्णा खलु पाण्डवैरण नदी कैवर्तकः केशवः पाराशयवतः सरोजममलम् गीतार्थगन्धोत्कटम् नानाख्यानकेसरम् हरिकथा सम्बोधनाबोधितम् लोके सज्जन षट्पदैरहरह पेपीयमानमुदा भूयाद्भारत पंकजं कलिमल प्रध्वंसि न श्रेयसे। मूकं करोति वाचालम् पङ्गुं लङ्घयते गिरिम्। यत्कृपातमहं वन्दे परमानन्दमाधवम्। यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैस्तवैः वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः ध्यान तद्गतेन मनसा पश्यन्ति यं योगिनो यस्यां तं विदुः सुरासुरगणा देवाय तस्मै नमः। परमात्मने नमः। अथ श्रीमद्भगवद्गीता प्रथमोऽध्यायः। धृतराष्ट्र उवाच। धर्मक्षेत्रे कुरुक्षेत्रे दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा आचार्यमुपसंगम्य राजा वचनम् शैतां पाण्डुपुत्राणा माचाय महतीं च व्यूढां द्रुपदपुत्रेण तव शीर्षेण धीमता वीर्यवान् सार्थं तां ब्रवीमि ते भवान् भीष्मश्च कर्णश्च कृपश्च समितिं जय सौभद्रष्ट महा जीवं संसते हस्ता स्वप्तैव परिदह्यते न च शक्नोम्यवस्थातुं भ्रमति
Right. अर्जुन विषाद योगो नाम प्रथमः